एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेकपा माओवादी केन्द्रस्य स्थायी समितेः उपवेशेन मासद्वयात्मकम् अभियानम् सञ्चालयितुम् निर्णीतम् वर्तते। पेरिस डाँडावर्तिनी दलस्य केन्द्रीय कार्यालय ह्य उपविष्टेन उपवेशेन फाल्गुन चैत्र मासयोः संगठनस्य सुदृढीकरणाय विस्ताराय च अभियानम् सञ्चालयितुम् निर्णीतमस्ति। उपवेशेन सर्वासाम समितिनाम् उपवेशम् आयोजयितुम् नेतृभिः कार्यक्षेत्रे गन्तुम् विवरणम् निर्मातुम् च निर्णीतम् वर्तते। उपवेशे निर्वाचनस्य विषयम् समीक्षितुम् विभिन्न स्थानेषु विहितस्य अन्तर्घातस्य विषये अवरस्तरम् यावद् एत्य विवरणम् निर्मातुम् च उपवेशेन निर्णीतमिति प्रवक्ता कृष्णबहादुर मोरा अज्ञापयत्। उपवेशेन माघस्य षड्विंशात् दिवसात् नेतृन् कार्यक्षेत्रम् सम्प्रेष्य अध्यक्षस्य प्रचण्डस्य निर्देशनम् वक्तव्यम् च अवरस्तरीय समितिम् यावत् नेतुमपि निर्णीतमस्ति। उपवेशे संगठनस्य सुदृढीकरणेन विस्तरणेन च सम्बद्ध प्रस्तावश्च विमृष्ट इति माओवादी केन्द्रम् ज्ञापयति। नेकपा माओवादी केन्द्रस्य अध्यक्ष प्रधानमन्त्री च पुष्पकमल दाहाल प्रचण्ड आत्मना सर्वै पक्षैः सह संवादो विधीयते इति वदति। पेरिस डाँडावर्तिनी दलस्य केन्द्रीय कार्यालय ह्य संचारकर्मीभ्य संक्षिप्त प्रतिक्रियां ददत् प्रधानमन्त्री प्रचण्ड राष्ट्रिय स्वतन्त्र दलेन उत्थापितायाः याचनायाः सन्दर्भे सर्वैः पक्षैः सह संवादो विधीयते, समस्या च समाधीयते इत्यभासत। राष्ट्रिय स्वतन्त्र दलेन गृह मन्त्रालयः आत्मना एव प्राप्तव्यः इति स्वत्वज्ञापनम् प्रस्तुयमानम् वर्तते। परम् प्रधानमन्त्री प्रचण्ड सर्वोच्च न्यायालयस्य निर्णयस्य पूर्णपाठस्य प्राप्तिम् यावत् रवि लामिछाने इत्यस्मै गृह मन्त्रालयस्य दायित्व प्रदानस्य पक्षे नास्ति। प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य नेकपा एमाले दलाध्यक्षस्य केपी शर्मा ओलीनश्च मध्ये मेलवार्ता सम्पन्नास्ति। बालवाटारावर्तिनी प्रधानमन्त्री निवासे ह्य सम्पन्ने मेलने एतयोर्मध्ये सामयिक राजनीतिक विषयेषु विमृष्टमिति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितम् वर्तते। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः भासते राष्ट्रम् इदानीमपि विगत कालतो माओवादी दलेन उत्थापितान् मूल विषयान् परितः सञ्चल्यमानम् वर्तते। आदिवासी जनजात्यायोगेन काष्ठमण्डपस्य भ्रिकुटी मण्डपे पूर्वे द्युः आयोजिते कार्यक्रमे प्रधानमन्त्री प्रचण्ड अकथयत् वर्तमान राजनीतिकोपलब्धि जनतायाः अधिकारश्च महता संघर्षेण प्राप्तौ स्तः। प्रधानमन्त्री प्रचण्ड नवीन संविधानस्य निर्माणस्य क्रमे विभिन्नानां सांविधानिकायोगानां विषये गभीरेण विमृष्टमिति स्मारयन् अवासत राज्यस्य सर्वेषु अंगेषु दृष्टं समावेशी प्रतिनिधित्वम् महत्वपूर्ण उपलब्धि वर्तते। प्रधानमन्त्री प्रचण्डः सर्वेभ्यो वर्गजाति समुदायेभ्य समानावसरम् प्रदाय एतेषाम् प्रतिनिधित्वम् विधाय चैव आन्तरा राष्ट्रियता सबलीकर्तुम् शक्यते इति प्रत्यपादयत। प्रधानमन्त्री प्रचण्डः अब्रवीत् समाजस्य रूपान्तरणाय वितेषु त्याग संघर्षेषु न सम्मानितेषु सत्सु प्राप्तोपलब्धेः निरसनस्य संकटः सम्भविष्यति। संघीय संसदी प्रतिनिधित्वम् कुर्वद्भिः प्रमुख प्रतिपक्षी दलेन सह अन्यैः राजनैतिक दलैः राष्ट्रिय सभायाः उपाध्यक्षाय अद्ययावत् प्रत्याशिनो निश्चीयन्ते। सिम्मा प्रसादवर्तिनी नेपाली कांग्रेस संसदीय दलस्य कार्यालय ह्य उपविष्टेन कांग्रेस नेकपा एकीकृत समाजवादी लोकतान्त्रिक समाजवादी दलानाम् शीर्ष नेतृणाम् उपवेशेन प्रत्याशिनः अद्ययावत् निश्चेतुम् निर्णीतमस्ति। नेपाली कांग्रेस दलस्य मुख्य सचेतक पदीय रमेश लेखक संघीय संसदीय विपक्ष स्थितानां दलानां नेतृणाम् उपवेशे राष्ट्रिय सभाया उपाध्यक्षस्य प्रत्याशिनः सम्बन्धे केन्द्रितम् भूत्वा विमृष्टमिति सूचितवान्। एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः उपवेशे राष्ट्रिय सभायाः उपाध्यक्षस्य अन्येषाम् पदानां च सम्बन्धे कथम् अग्रे वर्धनीयमिति विषये विमृष्टमिति अज्ञापयत्। राष्ट्रिय सभायाः उपाध्यक्षाय अद्य मनोनयन पत्र पञ्जीकरणम् स्वनिर्वाचनम् च विद्यमाने स्तः। नेकपा एकीकृत समाजवादी दलस्य केन्द्रीय समितेः पञ्चमोपवेशे अध्यक्षेण माधव कुमार नेपालेन राजनैतिकम् प्रतिवेदनम् प्रस्तुतम् वर्तते। ललितपुरे ह्य प्रारब्धे उपवेशे अध्यक्षो नेपालः पञ्चविंशति पृष्ठात्मकम् राजनैतिकम् प्रतिवेदनम् प्रस्तुतवान्। प्रस्तुते राजनीतिके प्रतिवेदने दश समूहान् निर्माय विमर्शनम् प्रारब्धम्। नेतृणाम् धारणायाः उपस्थापनक्रमस्य अवशिष्टत्वात् अद्यापि पुनः उपविश्यमानत्वेन उपवेश स्थगित इति दलस्य उपमहासचिवः प्रचार संचार विभाग प्रमुखश्च जगन्नाथ खतिवडा अज्ञापयत। तत्पूर्वम् राजनीतिकम् प्रतिवेदनम् प्रस्तुवन् अध्यक्षो नेपालः दलस्य व्यवहारः सिद्धान्तम् प्रतिपादयति त्यतः उचितः व्यवहारः प्रदर्शनीयः इति प्रत्यपादयत। काष्ठमण्डप महानगरपालिकया द्वात्रिंशतः एव वडा कार्यालयेभ्यः राष्ट्रिय परिचय पत्रस्य वितरणस्य कार्यम् प्रारब्धमस्ति। अस्यैव माघस्य पञ्चदशे दिवसे काष्ठमण्डप महानगरपालिकया नवभ्यः वडा कार्यालयेभ्यः प्रारब्धम् राष्ट्रिय परिचय पत्रस्य वितरण कार्यम् सम्प्रति द्वात्रिंशतः एव वडा कार्यालयेभ्यः जायमानम् वर्तते इति महानगरस्य प्रवक्ता नवीनमानन्धर अज्ञापयत। सीमित स्थानेभ्यः परिचय पत्रस्य वितरणे विहिते यथासमयम् परिचय पत्रस्य प्राप्तेः वेदनायाः नागरिकेभ्यः प्राप्तेः अनन्तरम् द्वात्रिंशतः एव वडा कार्यालयानाम् मध्ये स्वस्य अनुकूल वडा कार्यालयम् गत्वा परिचय पत्रस्य प्राप्तेः व्यवस्थापितास्तीति प्रवक्ता मानन्दर अबोधयत। एतत्पूर्वम् सिंहप्रसाद वर्तिना राष्ट्रिय परिचय पत्र पञ्जीकरण विभागात् परिचय पत्रम् निर्माय प्रतिजनपदम् जनपद प्रशासन कार्यालयेभ्यः राष्ट्रिय परिचय पत्र पञ्जीकरण विभागेन निर्धारितेभ्यः स्थानेभ्यः वा एव राष्ट्रिय परिचय पत्रम् वितीर्यमाणम् आसीत्। अद्य माघ शुक्ल पूर्णिमा श्री स्वस्थानी व्रत समापन दिवसस्य रूपेण समादृता वर्तते। अवसरेऽस्मिन् व्रतवत्यो महिलाः मासपूर्वम् पौष शुक्ल पूर्णिमायाः दिवसात् नियमपूर्वकम् समाचरितम् व्रतमेतद् श्री स्वस्थानी परमेश्वर्याः पूजाराधनानुष्ठानादि कर्मभिः पूरयन्ति। श्री स्वस्थानी परमेश्वर्याः व्रताचरण कथाश्रवण पूजनादि कार्यैः पारिवारिक सुख शान्ति मेलादि लाभः सम्भवतीति समाजे विश्वासो वर्तते। अद्यैव मासम् यावत् अनुष्ठितानि माधव नारायणस्य व्रतोपासना पूजनादि कर्माणि मेला च पूर्णताम् यान्ति। स्वास्थ्य जनसंख्या मन्त्री पद्मगिरी भासते जनतायाम् आधारभूत स्वास्थ्य सेवायाम् परिवर्तनस्य अनुभूति कारयिष्यते। ह्यः काष्ठमण्डपे स्वास्थ्य पत्रकार मञ्च नेपालस्य अष्टम्यां वार्षिक साधारण सभायां मन्त्री गिरी स्वास्थ्य क्षेत्रे स्थिताः विकृतिः विसंगतिश्च अपसारयितुं सक्रियेण प्रवर्त्यते इति प्रतिबद्धतां व्यक्तवान्। मन्त्री गिरी स्वास्थ्य क्षेत्रे वर्तमानानां विकृति विसंगतीनां विरूद्धे लेखनीं च चालयितुं अनुरुणत। कार्यक्रमे स्वास्थ्य जनसंख्या राज्य मन्त्री डाक्टर तोषिमा कार्की सर्वकारः गुणस्तरीय स्वास्थ्य सेवाम् जनताम् प्रापयितुम् सक्रियेण प्रयासरतोस्तीति अवोदयत। पेयजल मन्त्री अब्दुल खान वदति मेलञ्ची नद्याः जलस्य द्वादशसु एव मासेषु काष्ठमण्डपवासिभिः पानत्वेन कार्यम् अग्रे वर्धाप्यते। सिन्धुपाल्चोक जनपदस्य हिलम्बु ग्रामपालिकायाः प्रथमवडा क्षेत्रस्थितस्य अम्बास्थानवर्तिनः मेलञ्ची पेया जलायोजनायाः उद्गमस्थलस्य निरीक्षणाय ह्यत्र प्राप्तो मन्त्री खान अवोचत् आयोजनायाः सञ्चालनाय आवश्यक वित्तस्य प्राविधिक पक्षस्य च विषये आवश्यकम् विमृश्य द्रुत प्रक्रियया कार्यम् विधीयते। उद्योग वाणिज्यापूर्ति मन्त्री दामोदर भण्डारी कथयति समृद्धेर यात्रायाम् नैजक्षेत्रस्य अग्रे प्रवर्धनम् आवश्यकम् वर्तते। नेपाल मुद्रणोद्योग महासंघेन ह्य काष्ठमण्डपे आयोजितायाम् नवम्यां वार्षिक साधारण सभायाम् असौ अगदत् नैजक्षेत्रेण सह सहकार्येण विना आर्थिक समृद्धिर्न सम्भवति। असौ उद्योग सम्बद्धो विधिः पुनः अवलोकयिष्यते इति ब्रुवन् उद्योग मन्त्रालयेन औद्योगिक ग्रामाणाम् सञ्चालन सम्बद्धम् कार्यम् सततम् अग्रे वर्धाप्यमानमस्तीति असूचयत्।